तब विलोकनाथ कृष्ण गोपिका जनाः प्रमद संकुलाः कृष्ण पंकजे क्षण अमृतधारया कृष्ण संप्लुता इव स्तिमितताम् दधुः कृष्ण त्वत्पुरोगताः तदनु काचन कृष्ण त्वत्कराम्बुजम् सपति गृह्णति कृष्ण निर्विशङ्कितम् घनपयोधरे कृष्ण सन्निधाय सा पुलकसंवृता कृष्ण तस्थुषी चिरम् तब विभोपरा कृष्ण कोमलं भुजं निजगळान्तरे कृष्ण पर्यवेष्टयत् गळसमुद्गतं कृष्ण प्राणमारुतं प्रतिनिरुन्धतीव कृष्ण अतिहर्षुला अपगतत्रपा कापि कामिनी तव मुखाम्बुजात् कृष्ण पूगचर्वितं प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधति गता कृष्ण पूर्णकामतां विकरुणो वने कृष्ण संविहाय माम् अपगतोऽसि का कृष्ण त्वामिह स्पृशेत् इति सरोषया कृष्ण तल्पदेकया सजललोचनं कृष्ण वीक्षितो भवान् इति मुदाकुलैः कृष्ण वल्लवीजनैः समुमुपागतो यामुने तटे मृदुकुचाम्बरैः कृष्ण कल्पितासने घुसृणभासुरे कृष्ण पर्यशोभत्थाः कतिविधा कृपा कृष्ण केऽपि सर्वतो धृतदयोदयाः कृष्ण केचिदाश्रिते कतिचित् ईदृशा कृष्ण मादृशेष्वपीति अभिहितो भवान् कृष्णावल्लवीजनैः अयि कुमारिकाः कृष्ण नैव शङ्क्यतां कठिनता मयि कृष्ण प्रेमकातरे मयि तु चेतसो वोनुवृत्तये कृतमिदं मयेत्युचिवान् भवान् अयि निशम्यतां कृष्ण जीववल्लभाः प्रियतमो जनो नेदृशो मम तदिह रम्यतां कृष्ण रम्ययामिनीषु अनुपरोधमिति कृष्ण आलपो विभो इति गिराधिकं कृष्ण मोदमीदुरैः व्रजवधूजनैः कृष्ण साकमारमन् कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् गुरुपुरीपते पाहि मां गदात् गुरुपुरीपते पाहि मां गदात् ओं तत्सदिति श्रीमन्नारायणीये अष्टषष्टितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।